एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल। राष्ट्रिय सभया प्रविधिजन्य लैंगिक हिंसाया नियन्त्रणाय प्रस्तुत संकल्प प्रस्ताव सर्वसम्मत्या पारितीकृतोऽस्ति। सांसदेन रेणु चन्द इत्यनया प्रविधेः प्रयोगस्य सन्दर्भे लैंगिक हिंसाया नियन्त्रणाय महिलाधिकाराणाम् संरक्षणाय न्याय अधिकारस्य सुनिश्चनाय च आवश्यक नीतेः विधीनाम् च संस्थागतायाः व्यवस्थायाः प्रभावपूर्णेन क्रियान्वयनेन सह सम्बद्ध प्रस्ताव सभया सर्वसम्मत्या पारितीकृतोऽस्ति। राष्ट्रिय सभायाः अध्यक्ष नारायण प्रसाद दाहाल सभया पारितीकृतम् महिला बालबालिका लैंगिक यौनिकाल्पसंख्यक सामाजिक सुरक्षा मन्त्रिणा प्रस्तुतम् संकल्प प्रस्तावम् प्राथमिकतापूर्वकम् क्रियान्वेतुम् तदवसरे सर्वकारम् निरदिशत्। विमर्शने उत्थापितान् प्रश्नान् उत्तरयन्ती महिला बालबालिका मन्त्री सीता वादी लैंगिक हिंसायाः नियमनाय एकीकृत विधीनाम् निर्माणस्य उद्देश्येन धारणापत्रम् निर्मितमस्तीति उक्तवती। विमर्शने भागम् गृह्णन्तः सांसदा अत्याधुनिक प्रविधेर्माध्यमेन जायमानाम् लैंगिकीम् हिंसाम् नियन्तुम् संस्थागताम् विधिगताम् च व्यवस्थाम् विधातुम् सर्वकारस्य ध्यानम् आकृष्टवन्तः। राष्ट्रिय सभायाः अपरोपवेश अद्य दिवा सपादैकवादने आहूतोऽस्ति। प्रतिनिधि सभान्तर्गतायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितौ एकाशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् राष्ट्रिय विधि विज्ञान प्रयोगशाला विधेयकम् आधृत्य प्रकरणगत विमर्शनम् प्रारब्धम् वर्तते। समितेः ह्यस्तनोपवेशे विधेयकस्य प्रस्तावनाम् कतिपय प्रकरणानि चाधृत्य सम्भूते विमर्शने सांसदाः गभीरापदादस्य न्यायनिरूपणाय विश्वसनीयस्य परीक्षणस्य अपराधस्य वर्गीकरणस्य प्रभावपूर्णस्य अध्ययनानुसन्धानस्य च पृथक् पृथक् व्यवस्थाम् प्रस्तावनायाम् समावेष्टुम् परामृष्टवन्तः। राष्ट्रिय स्वतन्त्र दलस्य प्रथम राष्ट्रिय महाधिवेशनात् निर्वाचितैः पदाधिकारिभिः केन्द्रीय सदस्यैश्च शपथ गृहीतोऽस्ति। समतिवर्तिनी केन्द्रीय कार्यालये ह्य आयोजिते कार्यक्रमे दलस्य सभापतिः रवि लामिछाने पदाधिकारिणः केन्द्रीय सदस्यांश्च शपथम् अग्राहयत्। केन्द्रीय सदस्यानाम् शपथ ग्रहणानन्तरम् सभापतिः लामिछाने निर्वाचितान् पदाधिकारिणः शपथम् अग्राहयत्। राष्ट्रिय स्वतन्त्र दलस्य केन्द्रीय समितेः उपवेशेन त्रिषु केन्द्रीयायोगेषु पदाधिकारिणाम् मनोनयनम् विहितम् वर्तते। प्रथम राष्ट्रिय महाधिवेशनानन्तरम् ह्य केन्द्रीय कार्यालये उपविष्टेन प्रथम केन्द्रीय समितेः उपवेशेन केन्द्रीय निर्वाचनायोगे लेखायोगे अनुशासनायोगे च पदाधिकारिणाम् मनोनयनम् विहितम् अस्तीति दलेन ज्ञापितम् वर्तते। हरित जल वायुकोष समितेः पञ्चचत्वारिंशत्तमेन उपवेशेन नेपाल जलवायु थानशीलतायाः कृते 10.5 मिलियन अमेरिका देशीय डलर मुद्रायाः अनुदानस्य वित्तीय प्रस्तावः स्वीकृतोऽस्ति। समित्या कर्णाली प्रदेशे जीविकोपार्जनावसराणाम् कृते स्थानीय क्षमताभिवृद्धेश्च माध्यमेन वने निर्भरस्य समुदायस्य जलवायुत्थानशीलता निर्माण शीर्षकात्मकः वित्तीय प्रस्तावः ह्यः स्वीकृतोऽस्ति। अनया परियोजनया नेपालस्य जलवायु परिवर्तनम् प्रति संवेदनशीलेषु प्रदेशेषु कर्णाली प्रदेशे पारिस्थितिकीय प्रणाल्याः जलवायु सहनशील जीविकोपार्जनस्य संस्थागत सामर्थ्यम् सुदृढम् विधास्यते। उच्च शिक्षाया शैक्षिक कार्यकलापम् व्यवस्थितम् योजनाबद्धम् प्रभावपूर्णम् च विधातुम् विश्वविद्यालयानुदानायोगेन राष्ट्रिय शैक्षिक कार्यतालिकायाः विकासम् विधाय क्रियान्वयने आनीतास्ति। विश्वविद्यालयानाम् शैक्षिक गतिविधीन् एकीकृतान् कर्तुम् आयोगेन विश्वविद्यालयानाम् समन्वयेन राष्ट्रिय शैक्षिक कार्यतालिका क्रियान्विताऽस्ति। शिक्षा खेलकूद मन्त्रालयेन मन्त्रिस्तरीयस्य निर्णयस्य माध्यमेन पूर्वस्वीकृति पुरस्सरम् क्रियान्वयने समानितम् अशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् उच्च शिक्षा सम्बद्धम् राष्ट्रिय शैक्षिक कार्यतालिका प्रतिवेदनम् समयानुकूलम् परिष्कृत्य निर्मितम् निर्मिता नवीना राष्ट्रिय शैक्षिक तालिका स्वीकृता अस्ति। त्रिभुवन विश्वविद्यालयस्य सेवायोगस्य अध्यक्षपदे किशोर थापा नियुक्तोऽस्ति। प्रधानमन्त्रिणा त्रिभुवन विश्वविद्यालयस्य कुलपतिना बालेन्द्र सायेन थापा सेवायोगस्य अध्यक्षपदे नियुक्तो वर्तते। एवमेव सेवायोगस्य सदस्यपदे प्राध्यापक डाक्टर रेजिना मास्के नियुक्ता अस्ति। शिक्षा खेलकूद मन्त्रिण विश्वविद्यालयस्य सहकुलपतेश्च सस्मित पोखरेलस्य नेतृत्वे संघटितया परामर्श समित्या सेवायोगस्य अध्यक्ष पदस्य कृते प्राप्तानाम् आवेदनानाम् अध्ययनस्य मूल्यांकनस्य अन्तर्वार्तायाश्च अनन्तरं त्रयाणां जनानां नामानि कुलपते समक्षं परामृष्टानि। एतस्यैव परामर्शनस्य आधारेण कुलपति शाह थापा इत्यमुम् अध्यक्षपदे नियुक्तवान् वर्तते। प्रधानमन्त्री मन्त्रिपरिषद कार्यालयेन सर्वकारीय कार्याणाम् आधिकारिक प्रपत्राणां चलदूरभाष एप सञ्जालं प्रयुज्य चित्रग्रहणं न कर्तुं सर्वविध सर्वकाराः निर्दिष्टाः वर्तन्ते इति समाचाराः।